स्वयम्भुवो मनुरतो जनसर्गशीलो दृष्ट्वा महीम समये सलिले निमग्नम् सष्टारमापशरणम् भवदङ्गिसेवा तुष्टाशयो मुनिजनैः सह सत्यलोके कष्टम् प्रजा सृजति मय्यवनी निमग्ना स्थानम् सरोज भव कल्पय तत्प्रजानाम् इत्येवमेष कथितो मनुना स्वयम्भूरम्भोरुहाक्ष तव पादयुगम् व्यचिन्त्ये हाहाविभो जलमहम् न्यभिभौ पुरस्ताद् अद्यापि मज्जति महि किमहम् करोमि इत्थम् त्वदङ्गियुगलौ शरणौ यतोश्च नासापुटात् समभव शिशुकोलरूपी अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्ताद् भूयोत कुम्भि सदृश समजृम्बतास्त्वम् अभ्रे तथा विदमुदीक्ष भवन्तमुच्चैः विस्मेरता विरगत् सह सूनु विश्वैः कोसा वचिन्त्य महिमा किरुत्थितो मे नासा पुटा किमु भवेदजितस्य माया हितौ विचिन्तयति धातरि शैलमात्रः सद्यो भवन् किल जगज्जित घोरघोरौ तम् ते निनादमुपकर्ण्य जनस्तपस्थाः सत्यस्थिताश्च मुनयो मुनुवोर्भवन्तौ तस्तोत्र हर्षुलमनः परिणद्य भूयस्तो याशयौ विपुलमूर्तिरवातरस्त्वौ ऊर्ध्वप्रसारि परिधूम्रविधूतरोमा प्रोक्षिप्तवालविरवाङ्मुखर्घोरगोणः तूर्ण प्रदीर्ण जलदः परिपूर्ण दक्ष्ण स्तोत्रिमुनीन् शिशिरयन् नवतेरितत्वम् अन्तर्जलम् तदनुसङ्कुलनत्र चक्रम् ब्राह्म्यति मिङ्गिलकुलम् कलुषोर्विमालौ आविश्य भीषण रवेण रसातलस्तान् आकम्पय वसुमतिम् अगवेशयस्त्वौ दृष्ट्वा तदैत्यहतकेन रसातलान्ते संवेशिताम् जडिति कूटकिति विभो त्वम् आपातुकान विगणय्यसुरारिखेटान् दंष्ट्राङ्कुरेण वसुदाम् अददा सलीलौ अभ्युद्धरन्नथधर दशनाग्रलग्नमुस्ताङ्कुराङ्कित इवादिकतीवरात्मा उद्धूत घोरसलिलाज्जलधेरुदं च क्रीडावराकवपुरीश्वर पाहि रोगा